न पारमेष्ठ्यं न महेन्द्रधिष्ण्यं न सार्वभौमं न रसाधिपत्यं न योगसिद्धीरपुनर्भवं वा मयि अर्पितात्मेच्छति मद्विनान्यत् मयि अर्पितात्मेच्छति मद्विनान्यत् न पारमेष्ठ्यं न महेन्द्रधिष्ण्यं न सार्वभौमं न रसाधिपत्यं न योगसिद्धीरपुनर्भवं वा मयि अर्पितात्मेच्छति मद्विनान्यत् मयि अर्पितात्मेच्छति मद्विनान्यत्।